प्रतिभाम् रथम् प्रपदे जरद्धे हविष्पदा मनसा जग्निदेन यो वान्दो दोनधिष्ट्यापजे गरच्छा सोनुर्न पितरा विमग्मे अशो चक्रः समिधानो अस्मे उप अदृशन्तमसश्चिदन्ताः अचेति केतुर्षसः पुरस्ताच्छ्रिजे दिवो दुहितुर्जायमानः अभिमान्नो नमश्विनासुः तास्तोमयेऽस्य शक्तिना सत्याभिभक्मान् पूर्वेभिर्जातम् पथ्याभिरर्वाक्सरभिदामसुमतारथेन अपोर्वान्नो नमश्विना जुवाकुरहुवे जद्वाम् सुदेमाद्येव सोजः आवाम् वहन्तस्थविरासो अश्वाः पिबाथो अस्मे सुषतामधूनि प्राचेमदेवाश्विनाधिजम् मे मृध्राम् सातजे कृतम् वसोजम् विश्वा अविष्टम् वाज आपुरन्धेस्तानः शक्तम् जदेपदेशजेभिः अविष्टन्धेष्वश्विनान आस प्रजाभद्रेतो अह्रजन्नो अस्तु आवान्दोकेतनजेतो दुजानाः सुरत्ना सो देववेदिङ्गमेम एषस्य वाम्बोर्भगत्वेव सख्ये निधरहितो माध्वेरातो अस्मे अहेळता मनसा जातपर्वा गष्णन्ता हव्यम् मानुषेषु भिक्षो एकस्मिन् योगे भरणा समाने परिभाम् सप्तस्रमतो रथो गात् नवायन्ति सुभो देवयुक्ता देवान्धोर्षधरणयो वहन्ति असश्च ता मघवद्भ्यो हि भूतञ्जे राजा मघदेयम् जुनन्ति प्रजेबन्धम् सोनृताभ्यस्तिरन्ते गव्या बृञ्जन्तो अश्व्या मघानि नो मेह पमा शृणुतञ्जवानाजाशिष्टम् भर्तिरश्विनाभिरावत् धत्तम् रत्ना निजरतम् च सूरेन्द्योजम् पादस्वस्तिभिः सदा नः